यत्नेषु सर्वेष्वविनावकेशी केशी सभोजेशि दुरिष्टबन्धुः त्वं सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूपः गन्धर्वतामेष गतोऽभिरुक्षेर्नादैः समुद्वेजितः सर्वलोकः भवद्विलोकावधिगोपवाडिम् प्रमर्द्य पाप पुनरापतत्वम् तक्ष्यार्पिताङ्घ्रेस्तव दार्क्ष्य एष चिक्षेप वक्षो भुवि नाम पादम् भृगोपदाखादकथम् निशम्य स्वेनापि शक्यम् तदिदीव मोहात् प्रवञ्जयन्नस्य कुराञ्जलम् द्राक् अमुम् च चिक्षेपिथ दूर दूरम् सम्मूर्च्छितोऽपि हृदि मूर्च्छितेन क्रोधोष्मणा खादिदुमादृतस्त्वम् त्वम् वाकदण्डे कृदधीश्च वाहादण्डम् न्यधास्तस्य मुखे तदानीम् तद्वृद्धिरुद्धश्वसनो गदा सुसप्तीभवन्नप्ययमैक्यमागात् आलम्भमात्रेण पशोः सुराणाम् प्रसादगे नूत्न इवाश्वमेधे कृते त्वया हर्षवशात् सुरेन्द्रास्त्वाम् तुष्टुवुः केशव नामधेयम् कंसायते शौरिसुधत्वमुक्त्वा तम् तद्वदोत्कम् प्रतिरुध्य वाजा प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः कदापि गोपैः सह काननान्दे निलायन क्रीडनलोलुपम् त्वाम् मयात्मज प्रापदुरन्दमायो व्योमाभितो व्योमचरोपरोधी सचोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशुंश्च गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् एवम् विदेश्चाद्भुतकेळिभेदैरानन्दमूर्च्छा मदुलाम् व्रजस्य पदे पदे नूतनयन्न सीमाम् परात्मरूपिन् पवनेशपायाः श्रीहरये नमः गोपिका जीवनस्मरणम् गोविन्दा गोविन्दा।